अथ चतुर्थोऽध्यायः श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययं विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे ब्रवी एवं परम्परा प्राप्तं इमं राजर्षयो विदुः सकालेनेह महता योगो नष्टः परन्तप स एवायं मया तेद्य योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्मकर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन वीतरागभयक्रोधा मन्मया मामुपाश्रिताः बहवो ज्ञानतपसा पूता मद्भावमागताः ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारमपि मां विद्यकर्तारमव्ययं न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मां योऽभिजानाति कर्मभिर्न स बध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतं किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभा कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणश्च बोद्धव्यं गहनाकर्मणो गतिः कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृ यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः निराशीर्यतचित्तात्मा Tyakta sarva parigraha Shariram kevalam karma Kurvannapnoti kilvisham Yadriccha labha santushto Dvandvatito vimatsaraha Samaha siddhava siddhocha Kritvapina nibadhyate Gata sangasya muktasya Jnanavasthita chetasaha Yajnaya charatah karma Samagram praviliyate Brahmarpanam brahmahavihi Brahmagno brahmanahutam Brahmaivatena gantavyam Brahma karma samadhina Daivameva pare yajnam Yoginah paryupasate Brahmagnava pare yajnam Yajnenaivopajuhvati Shrotra dinindriyanyanye Sanyamagnishu juhvati Shabdadin vishayananya Indriyagnishu juhvati Sarvanindriya karmani Pranakarmani chapare Atma sanyama yogagnau Juhvati jnana dhipite Dravya yajnastapo yajna Yoga yajnastathapare Svadhyaya jnana yajnascha Yatayas samshitavrataha Apane juhvati pranam Prane panam tathapare Pranapanagati rudhva Pranayama parayanaha Apare niyataharaha Pranan praneshu juhvati Sarve pyete yajnavido Yajnakshapita kalmashaha Yajnashishtamrita bhujo Yanti brahma sanatanam Nayam lokostya yajnasya Uto nyah kuru sattama Evam bahuvidha yajna Vitata brahmano mukhe Karmajan vidhitan sarvan Evam jyatva vimokshase Shreyan dravyamayad yajnaha Jnana yajnah parantapa Sarvam karmakhilam partha Jnane parisamapyate Tadvidhi pranipatena Pariprashnena sevaya Upadekshantite jnanam Jnaninah tattva darshinah Yajnatvana punarmoham Evam yasyasi pandava Yena bhutanya sheshani Drakshasyatmanyathomai Apichedasi papebhyah Sarvebhyah papakrittamah Sarvam jnanaplavenaiva Vrijinam santarishyasi Yathaidhansi samidhognir Bhasmasat kuru terjuna Jnanagnihi sarva karmani Bhasmasat kuru te tatha Nahi jnanena sadrisham Pavitramiha vidyate Tatsvayam yoga samsiddha Kalena atmani vindati Shraddhavan labhate jnanam Tatparasanyatendriyah Jnanam labdhva param shantim Achirenadhigacchati Agyascha shraddhadhanascha Samshayatma vinashyati Nayam lokostina paro Nasukham samshayatmanah Yoga sanyasta karmanam Jnana samshinna samshayam Atmavantam na karmani Nivagnanti dhananjaya Tasmad ajnana sambhutam Hrittham jnanasinatmanah Chitvainam samshayam yogam आतिष्ठोत्तिष्ठ भारत। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः।